इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः अबुजानगरे नाइजीरियादेशस्य राष्ट्रपतिना बोला अहमद टिनुबु इत्यमुना साकं मन्त्रणां कृतवान्। श्रीमोदी नाइजीरियायाः द्विदिवसीय यात्रायै अबुजानगरं सम्प्राप्तवानासीत्। प्रधानमन्त्री नरेन्द्रमोदी नाइजीरियादेशेन ग्राण्ड कमाण्डर ऑफ द ऑर्डर ऑफ द नाइजर इति पुरस्कारेण सम्मानितः। स्वभाषणे श्रीमोदी अवदत् यत् सः महता विनयेन एनं सम्मानं स्वीकुर्वन् भारतीयेभ्यः समर्पितवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना उल्लिखितं यत् 17 वर्षेभ्यः परं भारतीयप्रधानमन्त्री नाइजीरियादेशं प्रति आगतवान्। तृतीयकार्यकाले नाइजीरियादेशस्य भ्रमणस्य अवसरः प्राप्य सः प्रसन्नतां प्रकटितवान्। सः अवदत् यत् भारतं नाइजीरियादेशस्य जलाप्लवे सहयोगाय 20 टनमितं यावत् मानवीय सहायतां प्रेषितवत्। सः नाइजीरियादेशं ब्रिक्स संघस्य सदस्यताप्राप्तये अभिनन्दितवान्। श्रीमोदी विश्वासं प्रकटितवान् यत् भारतं नाइजीरिया च ग्लोबल साउथ प्रभावितं कुर्वन्तौ विषयान् विश्वस्य समक्षम् आनेष्यतः। प्रधानमन्त्री मोदी राष्ट्रपति तिनुबुः उभयोः मध्ये अनेकेषां सन्धि ज्ञापनपत्राणां च आदान प्रदानं कृतवन्तौ। इतः पूर्वं प्रधानमन्त्रिणः मोदिनः अबुजानगरस्य राष्ट्रपतिभवने औपचारिकं स्वागतम् अभवत्। तदनु अद्य श्रीमोदी राष्ट्रपतिना लुइस इनासियो लुला दा सिल्वा इत्यनेन आयोक्ष्यमाणे G20 शिखरसम्मेलने भागग्रहणाय द्विदिवसीययात्रार्थं ब्राजीलदेशस्य रियो डिजे नेरियो नगरं प्रति यास्यति। ध्यातव्यमस्ति यत् भारतं ब्राजील दक्षिणाफ्रीका देशाभ्यां सह G20 इत्यस्य शिखरसम्मेलनस्य भागमस्तीति। अपि च प्रचल्यमाणस्य G20 शिखरसम्मेलनस्य चर्चासु सक्रियत्वेन योगदानं प्रददाति। कार्यक्रमावधौ प्रधानमन्त्री विभिन्नेषु वैश्विकप्रसंगेषु भारतस्य स्थितिं प्रकटयिष्यति। भारतेन आयोजिते वॉयस ऑफ द ग्लोबल साउथ इत्यस्मिन् शिखरसम्मेलनेऽपि चर्चां विधास्यति। तृतीये अन्तिमे च यात्रायाः सोपाने प्रधानमन्त्री अस्य मासस्य 19-21 दिनांकं यावत् गुयानादेशाय यास्यति। महाराष्ट्र झारखण्ड राज्ययोः विधानसभानिर्वाचनाय प्रचाराभियानं द्रुतगत्यां प्रचलति। महाराष्ट्रे नवम्बर मासस्य 20 दिनांके एकस्मिन्नेव चरणे निर्वाचनं भविष्यति। राज्ये 88-200 विधानसभासनानां कृते 37,100+ यावत् अभ्यर्थिनः भाग्यस्य परीक्षणं करिष्यन्ति। तेषु 71,700+3,000 यावत् पुरुषाः, 63,300+ महिला अभ्यर्थिनः च सम्मिलिताः सन्ति। झारखण्डे द्वितीयचरणस्य विधानसभानिर्वाचनस्य प्रचारः अद्य सायं समाप्तः भविष्यति। मतदातॄन् आकर्षयितुं विभिन्न राजनीतिकदलानां नेतारः सर्वविध प्रयासरताः सन्ति। बोकारो मण्डलस्य गोमियायाम् एकां नैर्वाचनिक जनसभां सम्बोधयन् भाजपायाः अध्यक्षः जेपी नड्डा झारखण्डे असीमित भ्रष्टाचाराय कुशासनाय च हेमन्त सोरेनम् आरोपितवान्। वायुगुणवत्ता प्रबन्धन आयोगेन दिल्ली एनसीआर क्षेत्रेषु अद्य प्रातः 8 वादनात् ग्रेडेड रिस्पॉन्स एक्शन प्लान GRAP चतुर्थम् इति समारप्स्यते। ग्राप चतुर्थेत्यस्य अन्तर्गतं दिल्लीनगरे अन्यराज्यानां बृहत्वाहनानां प्रवेशं निषिद्धं भविष्यति। परं च आवश्यकवस्तूनि वहन्तः आवश्यकसेवाः प्रदातुं विशिष्टवाहनानां प्रवेशः भविष्यति। सर्वेषां CNG, इलेक्ट्रिक, BS6, डीजल इत्येतेषां ट्रक वाहनानाम् अपि दिल्ल्यां प्रवेशस्य अनुमतिः भविष्यति। दिल्लीसर्वकारेण 10-12 कक्षे च विहाय सर्वेषां छात्राणां कक्षायाः आयोजनम् आभाषीयमाध्यमेन भविष्यति इति सूचितम्। श्रीलंकादेशे अद्य राष्ट्रपतिसचिवालये राष्ट्रपतिः अनुराग कुमार दिशानायके इत्यस्य उपस्थितौ सर्वकारस्य नवमन्त्रिमण्डलस्य शपथग्रहण समारोहः भविष्यति। श्रीलंकादेशस्य स्थानीयवार्तावाहिन्यानुसारि राष्ट्रपतिः 23-सदस्यीयं मन्त्रिमण्डलं नियोजयितुं योजनां विधास्यते। इति वार्ताः।